सर्वेभ्यः नमस्कारः. सर्वेभ्यः अस्माकं तत्र नूतनाय पाठाय नमो तत्र स्वागतं व्यवहरामि. इदानीं गते प्रागते वर्गे च अस्माभिः तत्र गुणः सूत्रसहितदृष्टिः इति विषयकं करपत्रं दृष्टं. तत्र कः विषयः आसीत् नाम, इदानीं भूवादिगणे ये धातवः इगन्तधातवः सन्ति, नाम येषु धातुषु अन्ते इ उ रि इ उ रि लि कारः अथवा काराः सन्ति, तेषां का गतिः इति अस्माभिः दृष्टम्. अत्र अस्माभिः दृष्ट तत्र गुणकार्यं कथं भवति, कानि सोपानानि तत्र सन्ति, कः क्रमः, कः मार्गः तत्र अनुसर्तव्यः इति सर्वम् अस्माभिः दृष्टम्. इदानीम् अस्मिन्नेव करपत्रे तत्र अन्ते एकम् अस्ति, तत्र त्रीणि उदाहरणानि दत्तानि, अथवा तत्र त्रयः धातवः दत्ताः, तान् परिशीलयामः. तेषाम् इदानीं कथां तत्र गुणः सम्भवति, किं तत्र अस्माभिः अनुसर्तव्यं, किं ज्ञेयम् इत्यादिकम् इति मन्ये. सर्वे जानन्ति वा कुत्र स्मः? तत्र सृक्षि ह्रिङ् इति त्रयः धातवः. तर्हि इदानीं तत्र मध्ये कोऽपि आगतः वा?
हरिः ओम्. राजशेखर,
नमस्कारः. राजशेखर, भवतु नाम. तर्हि उमा भगिनी एव आरम्भं करोति
वा? I'm not able to locate the extras. चिन्तनक्रमः that is there. Then अधुना सोपानेन परिशीलयिष्यामः.
इदानीं तत्र गुणः सूत्रसहिता दृष्टिः इति एतत् करपत्रं दृश्यते वा? यत् तत्र सम्यक् तत्र अन्ते एव तत्र अन्तिमं वाक्यं वर्तते. अन्तिमं वाक्यं जीज तदनन्तरम् अग्रे सृगटौ इति परन्तु सम्यक् एव भगिनि, न समीचीनं भगिनी एव जि इति तत्र पुनरेकवारं पततु. इदानीं तत्र उदाहरणं दत्तं, तदेव तदुदाहरणम् एव अस्माभिः अनुसर्तव्यम्.
ओके ओके. जि लौकिकधातुः, जि इगन्तधातुः, इ धातोः अन्ते अस्ति सो इगन्तधातुः. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण आप् योजयति विक्रमस्तृतीयं. शप् लशक्व तद्धिते सूत्रेण श इत् संज्ञा भवति. तस्य लोपः इति सूत्रेण लोपः भवति. शप् हलन्त्यम् इति सूत्रेण पकारः इति संज्ञा भवति. तस्य लोपः इति सूत्रेण लोपः भवति. तस्मात् आ मात्रमे अवशिष्यते. जी विकास् जि योगः आ योगः ति. जि इगन्त धातु सो इक् अन्ते अस्ति, तस्मात् इगन्तधातुः. सो जि योगः आ बिकास् आफ् दि गुणकार्यं जि बिकम्स् जे.
सो गुणकार्यं केन सूत्रेण विहितम् अस्ति?
कार्यम् अदेङ्गुणः
न, परन्तु सम्यक् अदेङ्गुणः इति सूत्रं किं विददाति?
ओके, इट् इस् संज्ञासूत्रं. सो आग्गुणः
तत्र करपत्रे एव पश्य तत्र करपत्रे एव पश्यतु जि योगः अयोगः चि इति अस्मिन् तत्र अस्मिन् किम् अस्यां पङ्क्त्याम् एव
तिंशित् सार्वधातुकं सार्वधातुक आर्धधातुकयोः
इदानीं तिंशित् सार्वधातुकम् इति अनेन सूत्रेण किं भवति
तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः योजयति सार्वधातुक धातोः अनन्तरं
तिंशित् सार्वधातुकम् इत्यनेन वा
तिंशि सार्वधातुकम् इत्यनेन शप् प्रत्ययः योजयति
इदानीं तिंशित् सार्वधातुकं कीदृशं सूत्रं विधिसूत्रं वा
अहं न जानामि प्रापर्लि
किं किं चिन्तयति
विधिसूत्रं possible I know I'm not I'm not very conversant with that still I am in
Kim explains para iparakar midan bavati matanusaram
tingshi sarvadhatukam iti ting
kim vadati dam sutram
ting ting pratyaya for lakaraha
सम्यक् सम्यक् सर्वाः तत्र क्रियापद किं भवति सर्वा विभक्तयः इति तथा वदामः चित् अस्ति इति आदयः इति टिङ् चित् इति आरभ्य महिङ् इति पर्यन्तं टिङ् भवति षित् नाम किम् यस्य शकारः इत् अस्ति सः षित् इति तत्र नामकरणं किञ्चित्
यस्य शकारः षित् अस्ति तदेव षित्
नाम अस्य सकारः इत् अस्ति
इत् भवति तदेव षित् इति उच्यते
सम्यक् समीचीनम् इदानीं सम्पूर्णं सूत्रं किं जातं तिङ् नाम तिप्तश्चि इति इति आदायः विभक्तयः अपि च षित् यस्य शकारः इत् अस्ति सः तत् सार्वधातुकम् इदानीं किं किं किम् एतत् सूत्रं वदति
तिंशित् सार्वधातुकम्
इदानीं भवत्या किम् उक्तम् अनेन सूत्रेण धातोः अन्ते तत्र किमपि विधीयते शाप् विधीयते वा किमपि विधीयते परन्तु इदानीम् अस्मिन् सूत्रे यानि पदानि सन्ति सम्यक् परन्तु
प्रथम भादिगणे शप् प्रत्ययः योजितव्यम्
तत् समीचीनं तदेव योजनीयः एव योजितव्यः एव अयं प्रत्ययः परन्तु अनेन सूत्रेण अस्य सूत्रस्य कः प्रसङ्गः का प्रसक्तिः अत्र अस्ति किमर्थम् इदं सूत्रम् अत्र उपस्थापितं कः लाभः किम् अनेन भवति
ओके षित् योजनेन गुणकार्यस्य बोधनमस्ति
सम्यक् इदानीम् अनेन सूत्रेण अनेन सविशेषम् इदं सूत्रं परिशीलयामः इति चेत् एतत् सूत्रं किं वदति
इको गुणवृद्धिसूत्रेण इकवर्णस्य गुणं भवति सम्भवति
समीचीनम् इदानीम् ओके एकं वदामि एतत् सूत्रं संज्ञासूत्रम् इति चिन्तयतु तर्हि किं भवति किं वदति एतत् सूत्रम् इदं संज्ञासूत्रम् इति कृत्वा इति तथा चिन्तयतु, एतत् सत्यं न वा इति न जाने, परन्तु पश्यामः. किंशित् इदानीं तिङ् इदानीं किं कोऽपि साहाय्यं करोति वा?
शप्शित् अस्ति इति कारणेन किञ्चित् सार्वधातुकम् इति सूत्रस्य आधारेण शप् सार्वधातुकं संज्ञा प्राप्नोति.
सम्यक्. का वदति? अञ्जलि भगिनि वा?
आं महोदय.
का वदति? इदानीं सम्यक्. तर्हि एतस्य सूत्रं सूत्रस्य क्षम्यताम् एतस्य सूत्रस्य अर्थः कः?
यदि प्रत्ययः अस्ति, षित् प्रत्ययः अस्ति, तथा तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकं संज्ञा प्राप्नोति.
सम्यक्, समीचीनं, तदेव समीचीनं. धन्यवादः. उमा भगिनि, उमा भगिनि
अस्मि अस्मि महोदय.
जानाति वा इदानीं? स्मरति वा इदानीम्? एतत् संज्ञासूत्रमस्ति एतत्.
यस्, तिङ्क्षित् सार्वधातुकम् इति सार्वधातुक नाम लभ्यते.
समीचीनं, तदेव समीचीनं. वस्तुतः शप् अनेन तत्र तत्र कुत्र अग्रिमे पत्रे करपत्रे एव जानीमः, तत्र कर्तरि शप् एकं सूत्रमस्ति येन शप् प्रत्ययः विहितः भवति. तिङ्क्षित् सर्वदातुकं तत्र कोऽपि तत्र कार्यं नास्ति, किमपि कार्यं नास्ति, केवलं संज्ञादानम् अनेन सूत्रेण दीयते येन शप् यः विकरणप्रत्ययः विहितः आसीत् अयं शप् विकरणप्रत्ययः सार्वधातुकम् इति संज्ञां प्राप्नोति. इदानीम् अस्यां संज्ञायां प्राप्तायां सत्यां किं भवति? गुणः भवति. कथं गुणः भवति? केन सूत्रेण
गुणः?
धातुकयोः इति सूत्रेण.
एवम् एवं सम्यक्. उमा भगिनि इदानीं इको गुणवृद्धिः उच्यताम्
महोदय. इको गुणवृद्धि इति सूत्रेण इकः वर्णः गुणं वा वृद्धि सम्भवति.
सम्यक्. एतत् कीदृशं सूत्रं, किं चिन्तयति?
दिस् इस् अगेन् विधिसूत्रम्.
न, एतत् सामान्यतः विधिसूत्रं तदपि वक्तुं शक्यते, परन्तु सामान्यतः अयम् इदं सूत्रं परिभाषासूत्रम् इति अस्माभिः व्यवह्रियते. परिभाषासूत्रं किं करोति? इदानीं यत्र कुत्रापि पाणिनिना गुणः वा वृद्धिः वा विधीयते, इदानीं तत्र प्रश्नः उदेचि सर्वदा कस्य गुणः कस्य वृद्धिः इति. तत्र अस्य प्रश्नस्य सर्वस्यामष्टाध्यायम् एकम् एव उत्तरं दत्तं तृतीयसूत्रे एव. इकः सर्वदा गुणः इकः एव भवति, सर्वदा वृद्धिः अपि इकः एव भवति इति. परन्तु इदानीम् एतत् अत एव अस्य सूत्रस्य सर्वा अष्टाध्यायी एव विषयः अस्ति. इदानीं तत्र सविशेषं के प्रति प्रक्रियां प्रति अस्माभिः तत्र चिन्तनं कर्तव्यम्. इदानीं कुत्र गुणः भवति, केन सूत्रेण अत्र गुणः विधीयते, अत्र अस्मिन् प्रसङ्गे सार्वधातुक अर्धधातुकयोः इति अनेन सूत्रेण एव गुणः विहितः पाणिनिना. इदानीं गुणः विहितः इति सम्यक् एव, इदानीं कस्य गुणः इति अत्र एव प्रश्नः अस्ति अस्माकं, कस्य गुणः भवतु नाम धन्यवादः गुणः कर्तव्यः, इदानीं कस्य गुणः इति नोक्तं स सुस्पष्टम् अत्र एव अस्मिन् प्रसङ्गे एव नोक्तम् अत एव परिभाषासूत्रं तत्र सहायं करोति. भोः पश्यतु, अत्र यदा कदापि पणिनिनासु गुणः विधीयते सः सर्वदा इकः स्थाने एव विहितः भवतु इति तत्र तृतीये एव अष्टाध्यायं तृतीयसूत्रे उक्तम्. अत एव इदानीम् अस्मिन् प्रसङ्गे केन सूत्रेण गुणः विहितः इति चेत् सार्वधातुकार्धधातुकयोः इति अनेन एव सम्यक्. इदानीं जे योगः आयोगः चि इति प्राप्तम्. अग्रे किं
जि योगः आ जि बिकम्स् जे बिकास् ए इ गुण इ वर्णस्य गुणः एकारः तस्मात् जि बिकम्स् जे जे योगः अ योगः ति ए प्लस् अ अयावसन्धि सन्धिरूपेण ऐ आगच्छति तस्मात् इञ् प्लस् ऐ प्लस् अ प्लस् ति जयति इति रूपं लब्धव्यम्.
सम्यक्, समीचीनं भगिनि. केवलम् अभ्यासार्थं पृच्छामि, तत्र किं एक तत्र षट् सूत्राणि सन्ति, प्रतिसूत्रं सूत्रस्य स्वभावः कः, नाम लषक्वतथिते इति कीदृशं सूत्रं, विधिसूत्रं वा संज्ञासूत्रं वा परिभाषासूत्रं वा, किं चिन्तयति लषक्वतद्धिते?
लषक्वतद्धिते इति संज्ञासूत्रं.
संज्ञासूत्रं सम्यक्. का संज्ञा तत्र विहिता भवति?
अत्तद्धिते and ka becomes it samya.
Ah, samyak, it samya. La, la, sha, ku, vargiya, hascha, atadite eva, adau, it samya, prapnuvanti. Samyak. Halantyam?
Halantyam, antya, varnaha, hal iti chet, that becomes it samya.
तर्हि किं सूत्रं, कीदृशं सूत्रं, कीदृक्सूत्रं?
दट्टासूत्रं.
समीचीनं, सम्यक्. तस्य लोपः इति?
तस्य लोपः दट्टासो विधिसूत्रम्.
एतत् विधिसूत्रम् एव सम्यक्. इदानीं तत्र द्वे संज्ञासूत्रे दृष्टे अपि च एकम् एव विधिसूत्रं. किञ्चित् सर्वधातुकं
परिभाषासूत्रं
न, तत् संज्ञासूत्रं सर्वधातुकम् इति संज्ञा. सार्वधातुकार्धधातुकयोः इति किं?
सार्वधातुकार्धधातुकयोः दट् इस् विधिसूत्रम्.
एतत् विधि सम्यक्. एचोयवायावः
दट् इस् आल्सो विधिसूत्रं.
समीचीनं, सम्यक्, सुन्दरं, धन्यवादः. सम्यक्, धन्यवादः.
तर्हि अहं निश्चितव्यं न जानामि, समथिङ्ग् ऐ जस्ट् सेड् दट्स् आल्. ऐ एम् नॉट
सम्यक् परन्तु सम्यक् यत् किमपि उक्तं यत् उक्तं तत् सम्यक् एव, सम्यक् गेस् कृतं. भवतु न, धन्यवादः. सम्यक्. तर्हि अरविन्द् महोदय.
आं महोदय.
तत्र श्रुधातुः तत्र कृपया वदतु.
श्रु गतौ इति लौकिकधातु लट् कृते प्रक्रियायां सृ योगः शप् योगः ति तत्र प्रथमं सोपानं लशक्वतत्तिदे हलन्द्यं तस्य लोपः त्रयाणां सूत्राणां प्रक्रियानन्तरं सृ योग आ योगः ति इति अवशिष्यते. तत्पर्यन्तं तिंशित् सर्वधातुकम् इति सूत्रेण शाप् इति प्रत्ययस्य सर्वधातुकसंज्ञा भूत्वा सर्वधातुकार्धधातुकयोः इति विधिसूत्रं आगत्य इगन्द अङ्गस्य गुणः विधीयते. तस्मात् सृ इति अन्ते उकारस्य गुणः भूत्वा सो योगः आयोगः ति इति भवति. तदनन्तरम् एचोयवायावः इत्यनेन सूत्रेण सो ओकारः अव् भूत्वा सृ योगः अव् योगः आयोगः ति वर्णमेलनेन स्रवति इति अन्तिमरूपं प्राप्यते.
सम्यक् सुन्दरं धन्यवादः. समीचीनं महोदय, धन्यवादः. सुजाता भगिनि, तत्र क्षीक्षये
क्षीयोगः शप् योगः ति क्षिप् क्षिप् लसक्वच्छुतदिते सूत्रेण हलन्त्यन्तं सूत्रेण तस्य लोपसूत्रेण क्षी योगः आ योगः ति तिङ्क्षित् सर्वधातुकं संज्ञासूत्रेण सर्वधातुक अर्धधातुकयोः सूत्रेण क्षी योगः आ योगः ति भवति. यजो यवायावः ये सूत्रेण
इदानीं सर्वधातुक अर्धधातुकयोः इति अनेन किं भवति? तत्र किञ्चित् विस्मृतम् इति मन्ये. तत्र अनेन किं भवति? यतोहि अनेन किं कार्यं विधीयते? गुणः गुणकार्यम्. इदानीम् ई स्थाने एक सम्यक्. तर्हि क्षे
सूत्रेण योगः ऐ योगः आ प्लस् त्रि क्षिपति क्षे न सम्यक् न जानामि महोदय.
समीचीनं, सम्यक् न, तत्र चिन्ता मास्तु, तत्र सर्वे एव चिन्तयामः. इचो यवायावः इति सूत्रं किं वदति? इदानीम् एच् एच् इत्यनेन किं स्वीकृतम्? एच् एच् इति किम्? सम्यक्. इदानीम् एच् तत्र परन्तु तत्र ए न न मम प्रश्नः कः, एच् एच् इति अस्य अर्थः कः? एच् इति प्रत्याहारः अस्ति,
प्रत्याहारः अस्ति. ये ये ऐ ओ औ
सम्यक्. इदानीम् ए ओ ऐ औ, समीचीनम्. ए ओ ऐ औ इति अस्मिन् एव क्रमे तत्र उपस्थापितः. इदानीम् ऐ ऐ अफ् ऐ आफ् इति तेषां आदेशः विहितः. कदा अयम् आदेशः? यदा अग्रे कश्चन अच् वर्णः आयाति संहित, यदि एचः अनन्तरं कश्चन अच् वर्णः आगच्छति तर्हि एचो यवायावः इत्यनेन सूत्रेण ए स्थाने ऐ, ओ स्थाने अव्, ऐ स्थाने ऐ औ स्थाने आफ् इति आगच्छति. सम्यक्. इदानीम् अस्माकं तत्र स्थितिः कीदृशी? क्षे योगः आ योगः ति. अत्र अनेन सूत्रेण किं भवति? सम्यक्. तदेव तदेव ए स्थाने ऐ. सम्यक्, धन्यवादः. समीचीनं, सम्यक्. अपि च ह्रिङ्, ह्रिङ् धातुः तत्र कः सुजाता आसीत्? विना भगिनि.
अस्तु महोदय. ह्रिङ् हरणे ह्रिङ् अत्र यः अनुबन्धसहितधातुः अस्ति हलन्त्यम् इत्यनेन अन्ते स्थितः इङ् वर्णस्य इत् संज्ञा भवति. तस्य लोपः इत्यनेन इकारस्य लोपः. अतः निष्पन्नधातुः. तदनन्तरं हिं योगः शप् विकिरणप्रत्ययः योगः ती तिङ् प्रत्ययः. लषक्व तद्धिते इत्यनेन शकारः इत् संज्ञा भवति. हलन्त्यम् इत्यनेन पकारः इत् संज्ञा भवति. तस्य लोपः इति सूत्रेण शकारपकारयोः लोपः अवशिष्यते. ह्रिङ् ह्रिङ् योगः अयोगः ति. तिंशित् सार्वधातुकम् इति संज्ञासूत्रेण शप् प्रत्ययस्य सार्वधातुकसंज्ञा इति भवति. सार्वधातुकार्धधातुकयोः इत्यने इति विधिसूत्रेण सार्वधातुकप्रत्यये परे शप् परे इगन्ताङ्गस्य इकः गुणः भवति. ह योगः अर् योगः अयोगः ति. ह योगः अर् हर् योगः अयोगः ति हरति इति क्रियापदनिष्पन्नः.
समीचीनं, धन्यवादः. सम्यक् सम्यक्, सर्वैः अवगतम् इति मन्ये. अपि च ह्रिङ् तत्र यथा भवत्या उक्तं सम्यक् एव उक्तम्. इदानीं ह्रिङ् इति एतद् एषः धातुः तस्य औपदेशिकं रूपम् एव अस्ति ह्रिङ्. तत्रापि हलन्त्यम् इत्यनेन सूत्रेण ङकारस्य इत्संज्ञा विधीयते. तर्हि तदनन्तरं तस्य लोपः इति अनेन एव मार्गेण सामान्यः मार्गः कश्चन अस्ति. सर्वे प्रत्ययाः, सर्वे धातवः, सर्वे किं प्रातिपदिकं, परन्तु धातवः प्रत्ययाः सामान्यतः सर्वे तेन मार्गेण एव गच्छन्ति. तत् संज्ञा इत्संज्ञा काचन तत्र अनुसर्तव्या. तासां सर्वासां लोपः, तस्य लोपः इत्यनेन अपि कर्तव्यः. सम्यक्. इदानीं ह्रिङ् इति अस्य हलन्त्यं ङकारस्य इत्संज्ञा विहिता. तस्य लोपः इत्यनेन सः एव ङकारः लुप्तः भवति. सम्यक्, तदनन्तरं सर्वं ज्ञातम् इति मन्ये. सम्यक्, प्रश्नाः सन्ति न वा अस्मिन् करपत्रे? प्रश्नाः
महोदय
अस्ति.
सूत्र सर्वधातुकार्थधातुकयोः एतस्मिन् सूत्रे सदा इको गुणवृद्धिः अस्ति वा अन्यथा वा अस्ति?
तत्र इदानीम् एतत् सूत्रं तत्र कुत्र आसीत्? तत्र काचन प्रक्रिया वस्तुतः इदानीं तत्र अनेकानि सूत्राणि अस्मिन् प्रसङ्गे अस्माभिः दृष्टानि. तत्र सर्वाणि सम्यक् एव न पतितानि. अग्रे प्रतिसूत्रं पश्यामः, परन्तु इदानीं सामान्यदृष्ट्या पुनरेकवारं वदामि. इदानीम् अनेन सूत्रेण यदि तत्र एतत् सूत्रं पश्यामः, अनुवृत्तिसहितं सूत्रं पश्यामः इति चेत्, नाम तत्र केवलं या अनुवृत्तया अनुवृत्तयः स्वीकुर्मः चेत् याः तत्र कुत्रापि समीपे सन्ति तर्हि अनेन सूत्रेण सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः इति तावदेव उक्तम्. इदानीम् तत्र तस्याम् उक्तौ अनेके प्रश्नाः तत्र प्रश्नाः सन्ति. सर्वप्रथमं कस्य गुणः अपि च इदानीं गुणस्य गुण अङ्गस्य गुणः इति उक्तं. तर्हि किं सर्वस्य अङ्गस्य स्थाने गुणः भवतु वा अथवा कस्मिंश्चित् एव वर्णे अङ्गस्य गुणः भवतु वा, एतत् सर्वं ज्ञातुं तत्र काश्चन परिभाषाः अपेक्षिताः सन्ति. एका परिभाषा अस्ति इको गुणवृद्धिः. इयं परिभाषा किं वदति, इदानीं यत्र कुत्रापि गुणः विहितः भवति, इदानीं कदाचित् पाणिना स्वयमेव उक्तम् इदानीम् अस्या एव गुणः भवतु एव, परन्तु सामान्यतः एतत् कुत्रापि सामान्यतः कुत्रापि नोक्तं प्रायः केषुचित् स्थानेषु अस्ति तत्र यदि किञ्चन विशिष्टं कार्यमस्ति तत्र प्रायः कुत्रापि अस्ति, परन्तु सामान्यतः पाणिनिन तदेव उच्यते, नाम अङ्गस्य गुणः भवतु नाम कस्य गुणः, कृपया वदतु इदानीं कस्य गुणः इति चेत् तत्र इकः गुणः इति परिभाषा काचन परिभाषा अस्ति तत्र वस्तुतः तृतीयं सूत्रम् एव सर्वस्याः अष्टाध्याय्याः इदं तृतीयं सूत्रम् एव वदति. यत्र कुत्रापि गुणः वा यत्र कुत्रापि वृद्धिः वा विधीयते तत्सर्वम् इकः भवतु इति एकम्. अपि च अत एव इदानीम् अस्माभिः ज्ञायते न केवलम् अङ्गस्य गुणः परन्तु इकः तत्र अङ्गे वर्तमानस्य इकः गुणः एव भवतु, परन्तु तेन एव पर्याप्तं न स्यात्. तत्र परिभाषाद्वयम् अपि अत्र अस्माभिः अपेक्षितं भवति. एकं परिभाषम् अस्ति येन विधिस्तदन्तस्य, अनेन अनया परिभाषया किम् उच्यते, इदानीं यत्र कुत्रचित् विशेष्यविशेषणभावः नाम विशेष्यविशेषणभावः दत्तः अष्टाध्यायम्, अपि च न केवलं विशेष्यविशेषणभावः, यदि अनेन यदि केनचित् विशेषणीभूतेन प्रत्ययेन वा अथवा किं वर्णेन वा किञ्चन कार्यं विधीयते. इदानीम् अत्र किम् इकः गुणः इति उक्तम्. इक् अत्र विशेषणम् अस्ति. कस्य विशेषणम्? अङ्ग इति अस्य पदस्य तवस्य अङ्गस्य इति अस्य पदस्य विशेषणं भवति. इदानीं तस्यां स्थितौ इयं परिभाषा वदति न केवलम् इकः अथवा न केवलम् अङ्गस्य इति ज्ञेयं, परन्तु इग् अन्तस्य अङ्गस्य इति तत्र अध्यहारः कर्तव्यः. इदानीं येन विधिस् तदान्तस्य, येन नाम इक् इकः इका विधिः इति क्रियते यदि इति चेत् तर्हि तदान्तस्य नाम इगान्तस्य इति तादृशः अध्यहारः तादृशः अर्थः सर्वदा एव अस्माभिः ज्ञेयः भवति. अतः इदानीं किम् अस्ति इक् अन्तस्य अङ्गस्य गुणः नाम इकः गुणः सार्वधातुकार्धधातुकयोः इति भवति. अपि च तत्र अलोन्त्यस्य इति अपि अस्ति, एतद् मास्तु. अनेन सूत्रेण अस्माभिः किं ज्ञायते, न इदानीं तत्र इदानीम् इतः पर्यन्तम् अस्माभिः किं ज्ञायते, इग् अन्तस्य अङ्गस्य गुणः भवतु. ओके, भवतु नाम इदानीम् इग् अन्तस्य अङ्गस्य गुणः. तर्हि इदानीं भू इति अस्ति, भू इगन्तम् अङ्गम् अस्ति एव, इदानीम् अस्य गुणः क्रियते. तर्हि किम् इदानीं सर्वस्य भूधातोः स्थाने ओ आदेशः कर्तव्यः वा? इदानीं भू योगः आ इति अस्यां स्थितौ ओ योगः अ इति आदेशः भवति तर्हि अवचि इति रूपं निष्पद्यते, परन्तु एतत् तु अनिष्टम्. इष्टं चे इष्टं किम्? इष्टम् अस्ति यत् न सर्वस्य भूधातोः परन्तु भूधातौ विद्यमानस्य अन्तिमस्य वर्णस्य एव आदेशः कर्तव्यः इति इष्टमस्ति. अत एव एतत् विदधातुम् एतत् किं भवति विहितुम् एतत् विहितुं येन विधिस्तदान क्षम्यताम् अलोन्त्यस्य इति सूत्रम् आगच्छति. अनेन सूत्रेण केवलम् अन्त्यस्य अलः नाम अन्त्यस्य वर्णस्य अन्त्य अङ्गे वर्तमानस्य अन्तिमस्य अन्त्यस्य अलः अन्त्यस्य वर्णस्य एव आदेशः कर्तव्यः सामान्यतः, तत्रापि केचन अपवादाः सन्ति. इदानीं किं निष्पन्नमस्ति? इकः अङ्गस्य, इकः अङ्गस्य इत्यनेन इग् अन्तस्य अङ्गस्य इति अवगम्यते. अपि च इकः यत् तत्र इकः भागः अस्ति सोऽयं भागः इति इको गुणवृद्धिः इति अस्मात् सूत्रात् तत्र आगतः. अतः इगान्तस्य अङ्गस्य अन्त्यस्य अलः नाम इकः एव गुणः भवतु कदा सार्वधातुकार्धधातुकयोः प्रत्ययोः परे अथवा परयोः. अवगतं वा अथवा पुनरेकवारं भवानेव वदतु कृपया तत्र उमा भगिनी तत्र कृपया प्रतीक्षां करोतु. उमा भगिनी क्षम्यतां तत्र प्रश्नः न सम्पन्नः इति मन्ये.
सर्वधातुकार्थधातुकयोः अस्य अर्थः कुत्र एतद् कार्यं भवति? किं कार्यं भवति? अन्तर्गतः गुप्तः अस्ति अत्र. अहम् अत्र अन्ते सर्वदा कः अङ्गः कोऽपि अङ्गः भवति
इदानीं तत्र सर्वधातुक अर्धधातुकयोः इति तत्र का विभक्तिः? किं चिन्तयति भवान्?
सप्तमी
विभक्तिः. सप्तमी, एवं सम्यक्. तत्र षष्ठी वा सप्तमी वा इति तत्र सन्देहः, परं तत्र सप्तमी एव अस्ति. सम्यक्. इदानीं सप्तमी विभक्तिः अष्टाध्यायं सर्वदा किं वदति? अस्मिन् परे नाम यदि सर्वधातुकं वा अर्धधातुकं वा कस्यापि परे अस्ति तर्हि यः प्राक् अस्ति तस्य एव किमपि कार्यं भवतु. अतः एव तादेव वसुधा एतदेव तत्र उक्तम्. इदानीं तयोः परयोः किं तत्र गुणः कर्तव्यः, कस्य गुणः तत्र इत्यादिकं सर्वं तत्र कथमपि ज्ञेयं भवतु. सम्यक् वा? इदानीम् उमा भगिनी कृपया.
अत्र अङ्गम् इति नाम चिन् एक अत्र संशयं उद्भवति मम मनसि. जि योगः शप् योगः ति, दिस् इस् दि फार्म् फार् दि लट्लकारस्य सोपानम्. अत्र जि मात्रम् अङ्गः इति
सम्यक् अवगम्यते. प्रश्नः ज्ञातः. इदानीं तत्र तत्र बहुपि तत्र महती कथा अस्ति, परन्तु इदानीं सारांशः कः? तत्र अङ्गम् इति संज्ञा सापेक्षिका संज्ञा अस्ति. नाम यथा पुत्रः वा पित्री पिता वा इदानीं सापेक्षिका संज्ञे एव द्वे स्तः. नाम मम अपेक्षया मम पिता एव अस्ति, परन्तु तस्य पितुः अपेक्षया मम पिता पुत्रः अस्ति इति. सम्यक् वा? तथा एव अङ्गम् अङ्गं वस्तुतः सापेक्षिका संज्ञा नाम न केवल न सर्वदा एव अङ्गं भवतु इति तथा न परन्तु इदानीं येन विधि तत्र यस्मात् प्रत्ययविधिस्तत् तत् प्रत्यये तदादि प्रत्यये अङ्गम् इति तत्र संज्ञासूत्रमस्ति नाम शप् प्रत्यय शप् प्रत्ययदृष्ट्या जि एव अङ्गम् परन्तु चि प्रत्ययदृष्ट्या जि योगः शप् इति अङ्गं भवति
ओके थेङ्क् यू वेरि मच् सम्यक्
समीचीनं तर्हि तर्हि अन्ये प्रश्नाः सन्ति वा तर्हि अग्रे गच्छामः इति मन्ये तत्र उपधायम् अपि गुणः सूत्रस्थिता दृष्टिः इति अन्यत् करपत्रं मया प्रेषितं तत्र अपि च तत्र मध्ये केचन आगताः इति मन्ये तत्र अञ्जली भगिनी मया दृष्टा अनेके लेखे अनेकेपि तत्र आज्याय महोदय वा अस्ति इति मन्ये अपि च जगन्नाथ जगन्नाथ भवतु नाम तर्हि इदानीम् अग्रे गच्छामः श्रीराम महोदय
आं महोदय
कृपया तर्हि तत्र
उपधायाम् अपि गुणः सूत्रसहिता दृष्टिः द्वादिगणे अवस्थाभ्ये गुणः भवति इति अस्माभिः दृष्टम् द्वादिगणे धातोः अन्ते इकवर्णः इ इ उ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति यथा भू भो भवति जि जे भवति सृ सर् भवति इति द्वादिगणे धातोः उपधायां लघु इक् वर्णः इ ऊर् अस्ति चेत् तस्य वर्णस्य गुणः भवति उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः यथा बुद्ध बोध् इति भवति कृष् कर्ष् इति भवति अत्र बुद्ध धातोः उकारः उपधा सम्यकः कृष् धातोः ऋकारः उपधा सम्यकः गते पाठे प्रथम दशायां इगन्त अवस्थायां दशायाम् इगन्त अवस्थायां गुणः कथं भवति इति अस्माभिः दृष्टम् यस्य धातोः अन्तिमवर्णः इ उ उ ऋ ऋ लृ नाम इक् प्रत्याहारे कश्चन वर्णः सः धातुः इगन्तधातुः सार्वधातुकप्रत्यये परे इगन्तधातोः अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण इदानीं द्वितीय दशायाम् इक् उपधा अवस्थायां गुणः कथं भवति इति पश्याम अवगमनार्थं लघुकथा संक्षिप्ता दृष्टिः अपि अस्ति पूर्णदृष्टिः अपि अस्ति आदौ लघुकथाम् अवलोकयाम अग्रे पठामि महोदय
तत् परन्तु इतः प्राक् तत्र किम् उक्तम् अग्रे तत्र अग्रे नाम अदौ किञ्चित् तत्र उपधा नाम किं किं भवति इत्यादि
अत्र महोदय गत करपत्रे अत्र द्वादिगणे गुणः कथं सिध्यति इति विषयस्योपरि सूत्रसहिता दृष्टिः अपि अस्माभिः कृता अत्र द्वादिगणे अन्तिम इक् वर्णस्य गुणः भवति इति सूत्रसहितम् अस्माभिः दृष्टम् इदानीम् अन्तिम इक् वर्णः एव न उपधायाम् इक् वर्णः अपि चेत् एव अपि चेत् अपि चेदपि उपधायां स्थितायाम् इक् वर्णस्य गुणः सम्भवति इति एतस्मिन् करपत्रे सूत्रसहिता पश्यामः.
सम्यक्. सर्वेषाम् इकां वा अथवा
अत्र उपधा इत्युक्ते यत्र अङ्गस्य अन्ते अन्तिमवर्णस्य समीपे इक् वर्णः अस्ति चेत् सः उपधायाम् इगन्तः इति कथ्यते.
सम्यक्, एतत्तु समीचीनं. परं तत्र किम् उक्तं लघु इक् इक् उपधा नाम न सर्वा
लघुगुपदानाम् एव गुणः सम्भवति इत्युक्ते ह्रस्व स्वरस्य एव गुणः सम्भवति उपधायाम् अस्ति चेत् इति. अत्र दीर्घस्वराः सन्ति चेत् ई उ ऋ अत्र गुणः न सम्भवति इति अपि अत्र सूचयति.
सम्यक्, समीचीनं. तर्हि समीचीनं महोदय. तर्हि भवतु नाम अग्रे एव पततु.
लघुकथा अत्र बुद् बोधति. अत्र उकारः ह्रस्वः बुद् धातोः उपधायाम् इक् प्रत्याहारस्य सदस्य च सदस्यः च. अस्याम् अवस्थायां बुद् धातुः वादिगणे सन् उकारस्य गुणः षप् विकरणप्रत्ययः एव कारणम्. किमर्थम् इति चेत् पुगन्तलघुपदस्य च इति सूत्रेण धातोः उपधायां लघु इक् चेत् तस्य गुणः भवति सार्वधातुके परे. सार्वधातुकसम्यक् प्रत्ययः धातोः अनन्तरम् बुद् योगः शप् योगः ति शप् षित् अस्ति अतः सार्वधातुकम्. अतः उगन्तलघुपदस्य च इत्यनेन उकारस्य गुणः बोधति इति भवति. सो तत्र महोदय बुद् इति धातुः स्वीकृत्य कथं लघु इगुपदानां गुणः सम्भवति इति पश्यामः. अत्र बुद् इति धातुः इद् इति व्यञ्जन व्यञ्जनमस्ति. अत्र उपधायां उ इप् उ इति अस्ति. अतः एव उकारः ह्रस्व उकारः अस्ति चेत् इति कारणेन अत्र स्थितस्य लघु उकारस्य गुणः विधीयते. उकारस्य गुणः ओ इति भवति. अत्र उकारस्य गुणः ओ इति भवति. अतः एव बुद् इति बोध् इति रूपं धरति. अनन्तरं वर्णमेलनेन बोध् योगः आयोगः ति इति कारणेन बोधति इति भवति. अत्र किमर्थं गुणः सम्भवति इति प्रश्नः अस्ति. प्रश्नः उदेति. अत्र विकरणप्रत्ययः शपः आ एव अवशिष्यते अपि षित् एव. अतः सर्वधातुकप्रत्ययः एव. अनन्तरं पुगन्तलघुपदस्य च इति सूत्रात् अत्र सार्वधातुक परे गुणः लघु उपधायां गुणः सम्भवति.
समीचीनं, सम्यक् महोदय, तदेव. धन्यवादः, समीचीनमेव सर्वं प्रतिपादितं, सर्वं स्पष्टम् इति मन्ये. तर्हि किम् अग्रे गच्छामः. तत्र कः पूर्णेन्दु महोदय? कृपया तर्हि तदा पूर्णकथा सर्वप्रथमं केवलं पठित्वा तर्हि तदनन्तरं सूत्राणि तत्र तेषां किं विवरणं दीयते तदपि वदतु कृपया.
पूर्णकथा प्रथमबिन्दु बुद्ध लट् लकार विवक्षा वक्तुम् इच्छा लट् प्रत्ययः विधीयते. द्वितीयबिन्दु बुद्ध योग लट् लट् स्थाने प्रथमपुरुषैकवचने तित् प्रत्ययस्य आदेशः. तृतीयबिन्दु बुद्ध योग तित् अलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत् संज्ञा तस्य लोपः इत्यनेन पकारलोपः. चतुर्थबिन्दु बुद्ध योग ति तिङ् सित् सार्वधातुकम् इत्यनेन ति तिङ् अतः सार्वधातुकसंज्ञकः. कर्तरि सप् इत्यनेन सूत्रेण कर्तरि अर्थे ति इति सार्वधातुके परे सप् प्रत्ययः विहितः. पञ्चमबिन्दु बुद्ध योग सप् योग ति लसक्व तद्धिते इत्यनेन सूत्रेण ल श क वर्णे हिते वर्णानाम् इत्न्या प्रत्ययस्य आदौ तद्धितप्रत्ययः नास्ति चेत्. षष्ठबिन्दु बुद्ध योग अ योग ति अलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा तस्य लोपः इत्यनेन सकारपकारयोः लोपः. अग्रे पठन् महोदय. उगन्तलघुपथस्य च पूर्वतने पाठे अस्माभिः दृष्टं यत् अ सप् इत्यस्य प्रतिनिधिः. सकारपकारयोः लोपः भवति किन्तु तयोः लक्षणं तिष्ठति एव. सकारस्य इत्संज्ञा अतः अवशिष्टः अकारः सित् अस्ति. सित् अस्ति अतः तिङ्सित् सार्वधातुकम् इत्यनेन सूत्रेण सप् अधुना अकारः सार्वधातुकसंज्ञकः प्रत्ययः. तदा गन्धलघुपथस्य च इत्यनेन सूत्रेण धातौ उपधायाः अश्व इकः गुणः भवति. सप्तमबिन्दु बोध योग अ योगति वर्णमेलनेन बोधति इति अन्तिमरूपं साध्यते. बुध धातुः बोधति इति रूपं कथं साध्यते? सम्पूर्णप्रक्रिया दीयते. प्रथमसोपाने बुध धातुः बुध अस्ति. अस्माकं विवक्षा लट् लकार प्रथमपुरुष एकवचन अस्ति चेत् लट् लकार लट् प्रत्ययः विधीयते. प्रथमपुरुष एकवचने तिप् प्रत्ययः विधीयते. अथ बुध योगः लट् लट् स्थाने तिप् प्रत्यय आदेशः भवति. अनन्तरं बुध योगः लप् तिप् स्थिते तिप् प्रत्ययस्य पकारस्य हलन्तम् इत्यनेन सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. अतः ति एव अवशिष्यते. बुद्ध योगः ति इति स्थितौ तत्र ति इति प्रत्ययस्य तिङ् सित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा प्राप्नोति. इत्यनेन ति तिङ् अतः सार्वधातुकसंज्ञकः ति सार्वधातुकसंज्ञकः प्रत्ययः अस्ति. ति सार्वधातुकप्रत्ययः अस्ति अतः कर्तरि सप् इत्यनेन इति अनेन सूत्रेण तत्र भूतधातु एवं ति प्रत्यय मध्ये सप् आगच्छति. इदानीं बुद्धयोगः सप् योगः ति इति अवस्था अस्माकं पुरतः अस्ति. तत्र सप् प्रत्ययस्य तकारस्य लसक्वतद्धिते इति सूत्रेण इत्संज्ञा भवति, पकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. उभयोः तस्य लोपः इत्यनेन लोपः भूत्वा अकार एव अवशिष्यते. इदानीं बुद्धयोगः अयोगः ति इति अवस्था अस्ति. अत्र बुद्धधातुः बुद्धधातुः लघुपथधातुः अस्ति. किमर्थम् इत्युक्ते बुद्धधातुः उपधा संज्ञकः वर्णः ऊकारः, लघु ऊकारः अस्ति. लघु ऊकारः अस्ति अतः उदन्तलघुपथस्य च इति सूत्रेण लघु उपधायां यः लघु ह्रस्व इकवर्णः अस्ति सार्वधातुक अर्धधातुकप्रत्यये परे तस्य लघु लघु उपधायाः गुणः भवति. अत्र उकार अस्ति, उकारस्य गुणः ओकारः. अतः गुणः भूत्वा बोध इति भवति. इदानीं बोधयोगः अयोगः ति इति अवस्था अस्ति. तत्र वर्णमेलनेन बोधति इति अन्तिमरूपं साध्यते.
समीचीनं महोदय, तदेव स एव विषयः. सम्यक्, अतिसमीचीनम्. अपि च तत्र एकं सूत्रम् अत्र दत्तम्. एतत् सूत्रं तु सामान्यतः प्रागेव प्रसक्तम् आसीत्, परन्तु तत्र नोक्तम्. अत्र तु अपि च मया अद्य एव उक्तम् एतत् सूत्रं, कर्तरि शप् इति एतत् सूत्रम् इति. अनेन एव तत्र सामान्यतः सर्वप्रथमं सर्वेषु धातुषु अथवा सर्वेभ्यः धातुभ्यः शप् प्रत्ययः विधीयते. इदानीं कदा विधीयते इति चेत्, यदि कर्त्रार्थकः सार्वधातुकः प्रत्ययः धातोः धातोः किं भवति धातोः परे अस्ति, धातोः परस्मात् अस्ति. इदानीं तत्र अवस्था का इति चेत्, भूधातुः अस्ति, भूधातुः एव, अत एव धातोः इति अधिकारभूतं यत् सूत्रं वदति तत् अत्र एव कार्यं करोति. तस्य अवकाशः अस्ति धातोः, नाम भू इति धातोः. तदनन्तरं तिप् अथवा ति प्रत्ययः अस्ति. सः ति प्रत्ययः सर्वप्रथमं सः कर्तरि अर्थे विहितः अस्ति आसीत्, यतोहि एषा तु अस्माकं विवक्षा आसीत्. इदानीं कर्तरि प्रयोगे एव किञ्चित् वक्तुम् इच्छामि इति विवक्षायां लट् लकारे नाम वर्तमानकालिकं काम् अपि क्रियां वदामि अथवा क्रियां वर्णयामि इति विवक्षा यदा उद्भूता तत्र एव अस्माभिः इदानीं तत्र परिशीलितं सर्वं. भवतु नाम तर्हि कश्चन कर्त्रार्थकः प्रत्ययः मया स्वीकर्तव्यः. तर्हि एव तिप् इति प्रत्ययः स्वीकृतः. इदानीं तिप् कर्त्रार्थकः प्रत्ययः अस्ति. अपि च तिंशित् सर्वधातुकम् इति अनेन तिङ् तिप् प्रत्ययः सार्वधातुकम् एव अस्ति. अत एव कर्तरि शप् इत्यनेन सूत्रेण धातोः अनन्तरं यदि कश्चन कर्त्रार्थकः सर्वधातुकं प्रत्ययः अस्ति, तदा एव शप् इति कश्चन अन्यः आगमः अथवा विकर्णप्रत्ययः धातोः अनन्तरं भवतु इति वदति. अत एव अनेन एव सूत्रेण तत्र शप् विकर्णप्रत्ययः विधीयते. तदनन्तरं प्रतिगणं तत्र अन्यानि सूत्राणि सन्ति, दिवादिभ्यः शङ् श्यङ् इत्यादिकानि सूत्राणि. तत्र प्रतिगणं कामपि विकारणप्रत्ययं विदधाति, परन्तु सर्वप्रथमं सर्वेभ्यः धातुभ्यः एव शप् विकारणप्रत्ययः विधीयते. तदनन्तरम् इदानीं तत्र सोपानानि प्रदर्शितानि अपि च भवता सम्यक् एव प्रतिपादितानि, तत्र मया किमपि वक्तव्यं नास्ति इति मन्ये. धन्यवादः पुण्यन् महोदय.
धन्यवादः.
तर्हि अग्रे गच्छामः इति मन्ये. इदानीं पुगान्तलाघुपदस्य च इति अस्य सूत्रस्य अर्थः कः तत् इदानीं पश्यामः. तत्र शर्मिला भगिनी वा?
आं महोदय.
तत्र बुट् शब्दि इति
पुगन्तलघुपदस्य च पूर्वतने पाठे अस्माभिः दृष्टं यत् अशब्
भगिनि, तदनन्तरं एतत् सर्वं पठितम् इति मन्ये.
बुधयोग शप् योग पुगन्तलघुपदस्य च इत्यस्य अर्थः पुगन्तस्य लघुपदस्य च अङ्गस्य सः गुणः अनुवृत्तिसहितं सूत्रम् पुगन्तस्य इति भागम् अधः अवलोकयामः. लघुपदस्य अङ्गस्य इतः गुणः सार्वधातुकार्थधातुयोः इति अस्माकं कृते नष्टं भागः अस्ति. लघु योग उपधा लघु तत्त्ववर्ण लघ्वी लघुशब्दः स्थिति लघ्वी योग उपधा लघुपद ह्रस्वः ह्रस्वा इक उपधाः ह्रस्व उत्थातो लघुपधा नाम उत्थातो लघुपदस्य लघ्वी उपधा यस्य तत् लघुपदं बहुप्रीति तस्य लघुपदस्य तस्य लघुपदस्य अङ्गस्य प्रत्यया पूर्णं पूर्वं यः सम्पूर्णभागः सः तस्य प्रत्ययस्य अङ्गम्. अत्र टप् इति प्रत्ययः तस्मात् प्रत्ययात् पूर्वं बुध् भाग अतः बुध् भागः टप् प्रत्ययस्य बुध् भागोः लघुपदः तस्वः पारः अपि अस्ति अतः बुध् भागः स्वयं लघुपद लघुपथम् आहत्य बुधः टप्रत्ययस्य लघुपथम् सार्वधातुसार्वधातुयोः सप्तमं सप्तम् पाणिनीयसूत्रेषु सप्तमी विभक्तिः इत्युक्तौ पूर्वकार अतः सर्वधातुकसंज्ञकप्रत्ययात् पूर्वं नाम षट् प्रत्ययात् पूर्वं लघुपदम् नाम उत्थापितः तस्य अङ्गस्य नाम उत्थापितः लघु उपधायाः इतः इतः नाम उपारस्य गुणः भवति अतः उपारस्य स्थाने उपारादेश उद्धयोगः षट् योगः अत्र पुगन्तलघुपदस्य च अर्थं तत्र पुगन्त विषयः परम् अवलोकयामः तु इति मन्ये. अत्र बुद्धिष्टप् बुद्धियोगष्टप् योग लघुपदस्य अङ्गस्य इकगुणः सर्वधातुकार्धधातुयोः प्रसङ्गमस्ति. अत्र लघ्वी उपधा लघुपथा इति संज्ञा संज्ञा कथं क्रियते इति प्रश्नमस्ति. लघु ह्रस्व ह्रस्व इ अस्ति चेत् तस्य लघुपथा नाम बुधधातोः लघुपदा लघुपदस्य अत्र लघुपदस्य इति शब्दस्य भक्तिसमासार्थं विग्रहवाक्यं कथनीयम् इति दत्तम्.
भगिनी तत्र
लघु उपधाय लघुपदं बहुवि तस्य लघुपदस्य उपधः वर्णः लघु रत्व ईपूर् अस्ति चेत् तस्य नाम लघुपदस्य प्रत्ययात् पूर्वं सम्पूर्णभावस्य प्रत्ययस्य
भगिनी तत्र अनेके तत्र प्रतिवादः सम्यक् सम्यक् न श्रूयते वस्तुतः इदानीं तत्र
ऐ काण्ट् एक्स्प्लेन् वेरि वेल् इदर्
इदानीं परन्तु इदानीं सम्यक् श्रुतम् इदानीम् उक्तं सम्यक् एव आसीत् परन्तु इतः प्राक् सारं समीचीनं स्यात् एतदेव इदानीं लघुपदस्य सर्वप्रथमम् अस्य पदस्य निर्माणं कथं भवति लघुपदा सर्वप्रथमम् उपदा वस्तुतः काचन संज्ञा अपि अस्ति सा तत्र अग्रे प्रदर्शिता परन्तु इदानीम् अस्माभिः अवगतम् अन्त्यात् वर्णात् प्रक्तनः वर्णः नाम प्रान्तिमः वर्णः वा तथापि वक्तुं शक्यते श्वः परश्वः परान्तिम वा तथापि भवतु इति मन्ये भवतु नाम इदानीम् अन्तिमः वर्णः यः तस्मात् प्राक् यः सः उपधा इति उच्यते उपधा तु स्त्रीलिङ्गकं पदं स्त्रीलिङ्गिपदम् अत एव इदानीं तस्य किं विग्रहवाक्यं दीयते चेत् नाम तस्य समासस्य विग्रहवाक्यं दीयते चेत् सर्वप्रथमं लघ्वी उपधा इति कर्तव्या तत्र कर्मधारया वा समासः कर्तुं शक्यते लघ्व्यूपधा स्यात् नाम लघ्व्यूपधा लघ्वी उपधा परन्तु अत्र लघुपदस्य इदानीम् अत्र तु उपधा स्त्रीलिङ्गे एव प्रयुज्यते परन्तु अत्र लघुपदस्य इति वर्तते अत्र लघुपदस्य इति बहुव्रीहिः समासः अस्ति विशेषणसमासः अस्ति तस्य विशेष्यं किम् अङ्गस्य एव अत एव विग्रहवाक्यं क्रियते चेत् तत्र लघ्वी उपधा यस्य सः इति तथा अस्माभिः अवगन्तव्यं भवति तर्हि यस्मिन् अङ्गे उपधा लाघु लघ्वी अस्ति अथवा लाघु अस्ति सः अथवा तत् अङ्गं लघुपदं लाघु उपधम् अङ्गम् इति उच्यते इदानीं लघुपदस्य अङ्गस्य सार्वधातुकार्धधातुकयोः इकः गुणः भवति इति उक्तम् इदानीं सर्वप्रथमं तत्र येन विधिस्तदन्तस्य इत्यादिकं तत्सर्वं तत्र नास्ति अस्य प्रसङ्गः अत्र लघुपदस्य स्वयम् एव अङ्गस्य इति प्रति अन्वेचि तत्र इदानीं येन विधिस्तदन्तस्य इति अस्य अपेक्षा नास्ति अत एव स्वयमेव अवगम्यते लघुपदस्य अङ्गस्य गुणः इदानीं गुणः यदा अस्माभिः श्रूयते तदा सर्वदा इको गुणवृद्धिः इति आगच्छति अत एव लघुपदस्य अङ्गस्य इकः गुणः इति अवगम्यते तदनन्तरं सार्वधातुकार्धधातुकयोः इति अपि तत्र यत् सूत्रं यत् एव सूत्रम् अस्माभिः प्राक् दृष्टं सार्वधातुकार्धधातुकयोः एतत् सूत्रं सम्पूर्णं सूत्रम् एव तत्र अनुवर्तते अत एव लघुपदस्य अङ्गस्य इकः इति अत्र परिभाषायाः आगच्छति इकः गुणः इति मिदेर्गुणः इति अस्मात् आगच्छति कदा भवति सार्वधातुकार्धधातुकयोः इदानीं सार्वधातुकार्धधातुकयोः इति षष्ट्यान्तं पदमस्ति षष्ट्यान्तं पदं दृश्यते चेत् तर्हि सर्वदा परे इति तत्र किम् अद्य हर्तव्यम् अथवा तत्र एव अवगमनं स्यात् इति प्राक् एव अस्माभिः उक्तम्. अतः एव इदानीं किम् अवगम्यते, इदानीं लघुपदं लघुपदम् अङ्गम् अस्ति चेत् तदनन्तरं यदि किञ्चन सार्वधातुकं वा आर्धधातुकं वा विधीयते विहितम् अस्ति चेत् तर्हि अस्य इकः नाम यस्य उपादायं उपादायं विद्यमानस्य लाघ्वीकः लाघु इकः गुणः भवति इति तथा अनेन सूत्रेण क्रियते उच्यते. अतः एव इदानीं बुद् इति अस्ति अत्र अन्तिमः वर्णधकारः, तस्मात् प्राक् उकारः अस्ति, सः उकारः ह्रस्वः इकारः, अत एव ह्रस्वं लघु इति अनेन सूत्रेण लघु लघुसंज्ञां प्राप्नोति. अत एव इदानीं बुद् लघुपदम् अङ्गम् अस्ति, अत एव पुगान्तलघुपदस्य च इति अनेन सूत्रेण अस्मिन् अङ्गे उपादायं विद्यमानः लाघु इकारः अथवा लाघु इक्कारः लाघु इकारः गुणादेशं प्राप्नोति. अत एव बोध् इति भवति. तर्हि बोध्योगः आयोगः इति तत्र कोऽपि सन्धिकार किमपि सन्धिकार्यं नास्ति, अत एव बोधति इति तथा एव निष्पद्यते इति. सम्यक् वा? पुनरेकवारं किमस्ति पश्यामि.
अलङ्क्यम् इत्यनेन सकारस्य कथं लोपन जायते
पश्यामि भगिनि. आम् सम्यक् प्रश्नः, समीचीनं भगिनि. इदानीं तत्र उत्तरं किम् अस्ति, बुद् धातु इति औपदेशिक तत्र औपदेशिकं रूपं नास्ति, तत्र वस्तुतः किं त्रयः धातवः सन्ति. एकः अस्ति बुधौ, तत्र बुद् अपि च अनुनासिकाकारः अन्ते अस्ति, तद् बुधा अवगामने, तदनन्तरं बुधा अवगामने अपि च तदापि तत्र अन्तेपि अनुनासिकाकारः, परन्तु सा अनुदात्तः, तत्रापि अन्यत् किमपि कार्यं भवति, आत्मनेपदी दातु भवति, भवतु नाम अपि च बोधने इति अस्मिन् अर्थे बुद्धिर् इति धातुः अस्ति. अत एव तत्र हलन्त्यम् इति अस्य प्रसङ्गः नास्ति, परन्तु समीचीनः प्रश्नः. बुद्ध् इति औपदेशिकं रूपं स्यात् इति चेत् अथवा किं भवति अभविष्यात् इति चेत् तर्हि अवश्यम् एव हलन्त्यम् इति अनेन इति संज्ञा प्राप्य तत्र तस्य लोपः स्यात्, परन्तु तथा नास्ति. सम्यक्
महोदय, मम एकः प्रश्नः अस्ति. अत्र अङ्गम् इत्युक्ते शप्रत्ययस्य अङ्गं बुद्ध धातुः, ति इति तिङ्प्रत्ययस्य अङ्गं बोध् बुद्ध अनन्तरं योगः शप् इति द्वितीयं ति इति तिङ्गस्य अङ्गं वा?
सम्यक् तदेव बोध इति तिप् प्रत्ययस्य तत्र तद्दृष्ट्या बोध इति कोऽपि किमपि अदङ्गम् अङ्गम् अस्ति, क्षम्यताम् अदन्तम् अङ्गम्, अत एव अकारः अन्ते अस्ति, तत्र कोऽपि गुणः वा तत्र कोऽपि गुणस्य प्रसङ्गः नास्ति, तत्र गुणवर्णः एव अस्ति, अतः अन्यथा तत्र गुणः तु स्यात् एव, परन्तु अदन्तम् अङ्गम् अस्ति चेत् तर्हि गुणस्य प्रसङ्गः नास्ति. सम्यक् तदेव
महोदय. अत्र इकः इत्युक्ते लृ ह्रस्व कुत्रापि न उपलक्षित वा?
भवतु नाम परन्तु लकारः अपि स्यात्. क्लिप् इति धातु अस्ति, तत्र कल्पनं वा तत्रापि स्यात्. किम् अत्र नोक्तं वा? इ उरि नोक्तम्. क्षम्यताम् क्लिप् धातुः अस्ति एव इति मन्ये बोधा परन्तु पश्यामि क्लिप् खै ख्नु ख्रि ख्रि खि किं नास्ति ख्रि ख्रिप् खु तथा धातुः नास्ति इति मन्ये परन्तु अस्ति एव परन्तु भो भगिनी वस्तुतः इदानीं ममापि तथा प्रश्नः वस्तुतः इदानीं यत् भवत्या तत्र प्रश्नं यतो हि कल्पनं वा कल्प्यते कल्पते इति तत्र भूवादिगणीयः धातुः अस्ति इति भाति अत एव पश्यामि भगिनि इदानीं ज्ञात्वा उत्तरं ददामि इदानीं ममापि उत्तरं नास्ति क्षम्यताम्
अत्र महोदय लृ इति स्वरस्य गुणः ल इति अस्ति वा
अल् अल् इति स्यात् वस्तुतः आर् अपि स्यात् तत्र तत्र भवतु तत्र इदानीं किं वदामि तत्र वस्तुतः कदाचित् एषः अपि पाठः अस्माभिः स्यात् वस्तुतः तत्र लकारस्य स्वयमेव तत्र पाणिनिना गुणः न विहितः इदानीं तत्र उराङ्ग्रपारः इति कश्चन सूत्र किञ्चन सूत्रमस्ति अनेन ऋकारस्य आर् इति आदे इति गुणः तत्र किं स्वशब्दैः वा तत्र सूत्रेण एव विधीयते परन्तु तत्र बहु कश्चन क्लेशः कृतः इदानीं पाणिनीयानां वैयाकरणानां कथां तत्र उराङ्ग्रपारः इति अस्मिन् सूत्रे कथां तत्र लिकारः तस्यापि प्रसङ्गः अस्ति नास्ति अत एव तत्रापि वार्तिकानि कानिचन सन्ति तानि तत्रापि सहायं कुर्वन्ति अत्र प्रायः तेषां वार्तिकानाम् अत्रापि क्लिप् परन्तु इदानीमेव धातुपाते पश्यामि तत्र क्लिप् नास्ति परन्तु भवितुमर्हति इति मन्ये क्लिक् तत्र न क्षम्यताम् इदानीं न जाने परन्तु कुत्रचित् स्यात् इति मन्ये तस्य तु गतिः कल्प् इति स्यात् अथवा कर्प् इति स्यात् अपि च तत्र वार्तिकानु क्लिप् इति अत्र अस्ति एव क्लिप् क्लिप् भूवादिगाने एव अस्ति क्लिप् तत्र ह्रस् न तत्र तु दीर्घ न क्षम्यताम् इदानीं परिशीलनं कर्तव्यम् इदानीं अग्रिमे वार्गे उत्तरं ददामि परन्तु सामान्यतः इक् इति अत्र इ उ रि ल् इति अन्तर्भूतः तथा इदानीं केवलम् इक् इति अस्य अर्थः कः आ इ उं रि लिक् इति तत्र लकारः लृकारः वा अत्र अन्तर्भूतः एव तत्र कोऽपि संशयः नास्ति परन्तु इदानीं तत्र सः प्रासङ्गिकः न वा इति तत्र मम तत्र सन्देहः इदानीं भूवादिगणे अस्ति वा कश्चन तत्र कश्चन धातुः यस्मिन् ह्रस्वरिकारः उपधायमस्ति इति न वा इति तथा सन्देहः मम इदानीं तत्र चिन्तनमस्ति तत् अस्ति कश्चन धातुः परन्तु इदानीं किमर्थम् अत्र न दत्तम् इति परिशीलनीयं समीचीनः प्रश्नः
धन्यवादः
अग्रे गच्छामः वा अग्रे पमेला भगिनि
आं महोदय
भुवादिगणे अन्यानि उदाहरणानि
भुवादिगणे अन्यानि उदाहरणानि पुगन्तलघुपदस्य च शुच् शोचति शोकम् अनुभवति कृष् कर्षति आकर्षणे क्रोश् क्रोशति रोदति रुह् रोहति वर्धते शुभ शोभते मतनम क्रोधानुभवनम गुष घोषति शब्दं करोति गृष घर्षति घर्षणे पुष पोषति पालन पोषणे अत्र
तत्तु इदानीं तत्र तु सर्वं स्पष्टं वा कथम् इमे सर्वे धातवः पुगान्तलघुपदस्य च इति अस्य उदाहरणानि भवन्ति तत् अवगच्छति वा भगिनि इदानीं शुच् शुच् इत्यस्य उपधावर्णः कः उकारः सम्यक् क्रिश् इत्यस्य
हस्वरुकार कृष्यस्य च हस्वरिकारः इत्य हस्वरिकारः अग्रिम ह्रस्व उकारः रुः ह्रस्वरुकारः शु अपि शुभ अपि ह्रस्वरुकार उपदावर्णे
उकारः
शुभ ह्रस्व उकारः गुष् इत्यस्य ह्रस्व उकार गृष् इत्यस्य पितु ह्रस्व ऋकारः पुष् इत्यस्य ह्रस्व उकारः
समीचीनं तर्हि अग्रे पततु सम्यक् भगिनि अग्रे भगिनी पततु
प्रश्नः अस्ति अत्र
कुत्र
पुगन्त अर्थः पपवर्गीयः वा
पुगन्त इति तत्र तत्प्रसङ्गे अग्रे पश्यामः परन्तु पुग् इति कश्चन तत्र आगमः अस्ति पकारः तत्र द इदानीं ददाति दापयति इति कोसिटिव् रूपमस्ति तत् अग्रे सारं जानीमः यस्यामः
अत्र पुगन्त अस्ति वा
न पुगन्त पुग् पुग् इति कश्चन आगमः अस्ति तत्र किं ह्रेपयति इति कोऽपि धातुः अस्ति परन्तु निच् निजन्तौ इदानीं ददाति इति जानाति वा भवान् ददाति अहं ददामि इदानीम् अथवा देवदत्तः गां ददाति इदानीं यज्ञदत्त देवदत्तेन गां दापयति हि कोज़ेस् हिम् टु गिव् अत्र यथा गच्छति गामयति तथापि दा इति लाग् किं क्षम्यतां दीर्घाकारान्तधातुः अस्ति चेत् तर्हि अस्य निजान्तरूपं तत्र पुगन्त क्षम्यतां पुग् आगमः भवति ददाति दापयति इति तत्र पकारः यः सः पुग् इति आगमः तत्तु अग्रे स्तरं भवति अग्रे भगिनि पमेला भगिनि वदतु अत्र न
अत्र न प्रसक्तिः धातो स्वर इक् प्रत्याहारे च उपदायां च किन्तु दीर्घः तत्र गुणः असम्भव जीव जीवति क्रीड क्रीडति शिव शिवति मिल मिलति धातो स्वर उपदायां किन्तु इक् नास्ति तत्र गुणः असम्भव एज् एजति एकार इक् प्रत्याहारे नास्ति धातो हस्व इक् वर्णः अस्ति किन्तु उपदायां न स्थितः तत्र गुणः असम्भव निन्द निन्दति नकार उपदासंज्ञक इकार उपदायां नास्ति हिंस हिंसति अनुस्वार उपदायां भिक्ष भिक्षते ककार उपदायां मुण्ड मुण्डति नकार उपदायां अत्र महोदय इति उक्तं यत् उप पुगन्तलघुपदस्य प्रसक्तिः न भवति इति. सो धातो स्वर इकप्रत्ययः च उपधां च किन्तु दीर्घ तत्र गुणः असम्भवः. यदि वयम् इदानीं पश्यामः चेत् जीव तत् उपधायां दीर्घ ईकारः अस्ति, तत्र गुणः न भवति. क्रीडा अपि दीर्घ ई अस्ति, शिव दीर्घ ईकारः अस्ति, मिल् अपि दीर्घ ईकारः अस्ति, तत्र पुगन्तलघुपदस्य प्रसक्तिः नास्ति. अपि तु धातो स्वर उपधायां किन्तु इक् नास्ति, तत्र गुण असम्भव. एज् एजति एकार इक् इक प्रत्ययवर्णे नास्ति, तथा गुणस्य प्रसक्तिः नास्ति. तत् धातोः ह्रस्व इक् वर्णः अस्ति किन्तु उपधायां न स्थितः, तत्रापि गुणः असम्भवति इति उक्तवान्. निन्द तत्र नकार उपधाय संज्ञक किन्तु इकार उपधायां नास्ति. हिंसा अपि उपधायां इकार नास्ति, अनुस्वारः अस्ति उपधायां. तथैव भिक्षते ककार उपधायां. मुण्ड नकार उपधायां गुणः न भवति.
सम्यक्, समीचीनं भगिनि, तदेव सम्यक्. धन्यवादः.
धन्यवादः.
तर्हि किं किं कुर्मः इदानीं? किम् अग्रे गच्छामः वा अथवा इदानीमेव स्थगयामः? परन्तु तत्र सेतुरां महोदय, राजशेखरमहोदय इतः प्राक् न पचितवन्तौ इति मन्ये. किम् ओके, भवतु, किञ्चित् अग्रे गच्छामः इति मन्ये. तर्हि तत्र सेतुरां महोदय, भवान् एव पततु. अस्मि
महोदय, पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सर्वधातुके अर्धधातुके च प्रत्यये परे. तुक् अन्ते यस्य तत् पुगन्तं, लघु तथा यस्य तत् लघुपदम्. पुगन्तस्य लघुपदस्य तयोः पुगन्तलघुपदं समाहारद्वन्द्वः. तस्य उपन्तलघुपस्य षष्ठन्तं पदं च द्विपदमिदं सूत्रं निवेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः. सर्वधातुकार्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः इको गुणवृत्ति इत्यनेन परिभाषासूत्रेण इकः भवति. यत्र उक्तम् अनुवृत्तिसहितं उपन्तलघूपथस्य च अङ्गस्य इकः गुणः सर्वधातुकार्थधातुकयोः. अत्र उपन्तलघूपथस्य च अस्य सूत्रस्य पूर्णविवरणम् अस्ति. पुगन्तः पुगन्तस्य अङ्गः लघुपद अस्य कः गुणः भवति. अत्र सर्वधातुके अर्धधातुके पुगन्तस्य अङ्गः लघुपद अस्ति चेत् तस्य गुणः भवति इति अर्थः. कुप् यस्य तत् पुगन्तं, कुप् पूर्वे
तदग्रे पश्यामः. पुक् नाम किं तदग्रे पश्यामः?
लघ्वी लघु ह्रस्वर्णाः लघ्वी सप्तमी भवति लघ्वी तथा यस्य अस्ति सः लघु कथम्. अत्र पुक् सन्ति लघ्वीका सन्ति अस्य वर्णम् अस्ति. पुगन्तस्य लघुपदस्य अस्ति समासः ये समासः अस्ति सन्तः समासः स भवति उगन्तलघुपदस्य उगन्तरूपदस्य षष्ठन्त्यं पदम् अपि च अव्ययपदम् अस्ति ये सूत्रम् अत्र द्विपदानि सन्ति अतः द्विपदमिदं सूत्रं सूत्रान्ते अनुवृत्तिः अस्ति मिदेर्गुणः इत्यस्मात् सूत्रस्य गुणः इति अस्य अनुवृत्तिः इति मन्तव्यं सर्वधातुक अर्धधातुकोः इत्यस्य पूर्ण अनुवृत्तिः अन्तर्भूतः सर्वधातुक अर्धधातुकयोः ये किञ्चित् गुणः कार्यः सन्ति ये सर्वाणि सर्वधातुकधातुयोः भवति इत्यस्य पूर्ण अनुवृत्तिः अङ्कस्य इत्यस्य अस्कारः कार्यः भवति इति इत्यस्य अर्थः इकोगुणवृत्तिः इकः इत्यनेन परिभाषात्वेन इकः भवति स्थाने यत्र स्थानी न उक्तं सूत्रः अस्ति अनुवृत्तिसहितसूत्रं सम्पूर्ण विवरणः अस्ति उदन्तलघुपदस्य च अङ्गस्य इकः स्थापितयोः
सम्यक् समीचीनं तदेव तत्र इदानीम् अस्या सूत्रस्य विवरणं दत्तम् इदानीं सर्वप्रथमं प्रतिपदं तत्र विग्रहवाक्यं किं पुगन्तलघुपदस्य इति अत्र पुगन्तं नाम किं लघुपदं नाम किं तयोः समाहारद्वन्द्वः कथं सम्भवति इति एतत् सर्वं दृष्टं च इति अव्ययपदम् अपि तत्र प्रतिपादितं तदनन्तरम् अनुवृत्तयः अनुवृत्तिः का इति तत्र सर्वदा एव ज्ञेयं भवति गुणः सर्वधातुकार्धधातुकयोः अङ्गस्य च इति गुणः इति सर्वधातुकयोः इति द्वौ तत्र तत्र द्वे अनुवृत्ते एव स्तः परन्तु अङ्गस्य इति यद्यपि अनुवृत्तिरूपेण अत्र अनुवर्तते परन्तु तस्य किञ्चन स्थानं तत्र तस्य यतोहि तस्य विषयः बहु अस्ति अत एव सः अङ्ग सः अधिकारसूत्रम् इति अस्माभिः उच्यते नाम अस्य स्वस्मिन् स्थाने किमपि कार्यं नास्ति केवलम् अनुवृत्त्यार्थम् इति अत्र सूत्रम् उपस्थापितम् अत एव अधिकारसूत्रम् इति उच्यते भवतु नाम अपि च तत्र इको गुणवृद्धिः पुनः इको गुणवृद्धिः पुनरेकवारम् एतत् सूत्रमस्ति यतोहि अत्रापि एतत् अस्ति तत्र किं तादृशी स्थितिः अस्ति इदानीं गुणः उक्तः परन्तु कस्य गुणः इति सम्यक् न ज्ञायते अतः एव तद् ज्ञातुम् इयं परिभाषा अस्माभिः तत्र अनुसर्तव्या भवति अनुसरणीया भवति इदानीम् इकः इति स्थाने अनया परिभाषया अत्र अवगम्यते अतः एव अनुवृत्तिसहितं सूत्रं सम्पूर्णं सूत्रं पुगान्तलघुपदस्य च अङ्गस्य गुणः नाम इकः स्थाने गुणः भवति कदा सार्वधातुकधातुकयोः परयोः किं परयोः इति तावदेव तर्हि किम् अत्र स्थगयामः इति मन्ये समयोऽपि जातः तत्र क्षम्यतां राजशेखरमहोदय अत्र अद्य न पतितवान् क्षम्यतां तर्हि अग्रिमे पाते भवानेव पततु इति क्षन्तव्यम् तर्हि धन्यवादः
धन्यवादः
नमस्कारः
धन्यवादः नमस्कारः महोदय.